इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य महाराष्ट्रस्य पुणे नगरस्य यात्रायां भविष्यति। सः षड्शतोत्तर द्वाविंशति सहस्र कोटि रूप्यकाणां विविधानां परियोजनानां उद्घाटनम् आधारशिलां च स्थापयिष्यति। श्रीमोदी जनपद न्यायालयात् पुणे नगरस्य स्वर्गेटं प्रति मैट्रो रेल यानं हरितध्वजं प्रदर्शयिष्यति। सुपर कम्प्यूटिंग प्रौद्योगिक्या क्षेत्रे भारतं स्वावलम्बनं कर्तुं स्वस्य प्रतिबद्धताया अनुरूपं प्रधानमन्त्री राष्ट्राय सुपर कम्प्यूटिंग मिशन इत्यस्य अन्तर्गतं स्वदेशे विकसितानां प्राय त्रिंशदधिकैकशतकोटिरूप्यकाणां व्ययेन निर्मितानां त्रीणि परम रुद्र सुपर कम्प्यूटर इति संगणकान् समर्पयिष्यति। प्रधानमन्त्री श्रीमोदी ऋतु विभागस्य जलवायु संशोधनस्य च अनुरूपं उच्च प्रदर्शन कम्प्यूटिंग प्रणाल्या अपि उद्घाटनं करिष्यति। परियोजनैषा सार्ध अष्टशत कोटि रूप्यकाणां व्ययेन निर्मितास्ति। ऋतुविज्ञान विभागस्य अनुप्रयोगानां कृते भारतस्य गणना क्षमतायां विशिष्ट योगदानं भविष्यति। राष्ट्रपति पदासीना द्रौपदी मुर्मू अद्य सियाचीन आधार शिविरस्य भ्रमणं करिष्यति। भ्रमणकाले राष्ट्रपति तत्र नियुक्तैः सैनिकैः सह संवादमपि करिष्यति। जम्मूकश्मीरे ह्यः द्वितीय चरणस्य विधानसभा निर्वाचने सप्तवादनपर्यन्तं 54.11% मतदानं जातम्। उत्साही मतदातृणां दीर्घाः पंक्तयः स्वस्य मताधिकारस्य प्रयोगाय सिद्धाः दृष्टाः। केन्द्रशासित प्रदेशस्य षड्मण्डलेष् षड्विंशति विधानसभाखण्डेष् सर्वेष् द्व्यधिकपञ्चशतोत्तरत्रिसहस्रं मतदानकेन्द्रेष् कठिनसुरक्षाव्यवस्थायां मध्ये मतदानं प्रातः सप्तवादने आरब्धम्। अस्मिन् चरणे एकोनचत्वारिंशदुत्तर द्विशतम् अभ्यर्थिनां भाग्यस्य निर्णयं प्रायः पादोन षड्विंशतिः लक्षं मतदातारः कृतवन्तः। हरियाणा विधानसभा निर्वाचनाय प्रचाराभियानं सजवं प्रवर्तते। प्रधानमन्त्री तथा भाजपादलस्य वरिष्ठः नेता नरेन्द्रमोदी ह्यः सोनीपतस्य गोहानायां द्वाविंशति विधानसभाक्षेत्राणां दलस्य अभ्यर्थिनः पक्षे जनाशीर्वाद सभां सम्बोधितवान्। अस्मिन्नवसरे श्रीमोदी एनडीए सर्वकारेण समारब्धस्य मेक इन इंडिया उपक्रमस्य लाभान् प्रकाशितवान्। प्रधानमन्त्री अवदत् यत् हरियाणा भाजपा सर्वकारस्य कार्यकाले उद्योग कृषि इत्यादिषु क्षेत्रेष् हरियाणा राज्येण शीर्ष राज्येष् स्वस्थानं संरक्षितमस्ति। सः अवदत् यत् राज्ये भाजपायाः समर्थनं प्रतिदिनं वर्धमानमस्ति। कुरुक्षेत्रे भाजपायाः वरिष्ठः नेता तथा केन्द्रीय मन्त्री नितिन गडकरी जनसभां सम्बोधितवान्। भारतीय राष्ट्रिय लोकदलेन ह्यः पूर्व उप प्रधानमन्त्री चौधरी देवीलालवर्यस्य जयन्त्यवसरे जिन्दमण्डलस्य जुलानायां जननायक सम्मान इति पथ प्रदर्शन्याः आयोजनं कृतम्। बहुजन समाज पार्टीति दलस्य प्रमुखा मायावती, शिरोमणि अकाली दलस्य च प्रमुखः सुखवीर बादलः अपि आईएनएलडी नेतृभिः सह सभां सम्बोधितवन्तः। आम आदमी पार्टीति दलस्य राष्ट्रिय संयोजकः अरविन्द केजरीवालः अपि मेहम इत्यत्र जनसभां सम्बोधितवान्। 90 सदस्यानां हरियाणा विधानसभायाः मतदानं अक्टूबर मासस्य पञ्चमे दिनांके भविष्यति। तत्रैव मतदानस्य गणना अक्टूबर मासस्य अष्टमे दिनांके भविष्यति। इति वार्ताः।